इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अवोचत् यत् भारतं रिफॉर्म एक्सप्रेस इति दोषनिवृत्ति पथे अग्रेसरं वर्तते, येन भारतं जगतः केन्द्रत्वं वर्तते। प्रधानमन्त्रिणा नरेन्द्र मोदिना ह्यः ऐषमः रिफॉर्म एक्सप्रेस इति विषये सोशल मीडिया इति संचारपटले एको लेख लिखितः। अस्मिन् लेखे शासनस्य तेषां संचयी कार्याणां विवरणं प्रस्तुतं, यैः शनैः शनैः बाधाः निराकृताः। श्रीमोदी अवदत् यत् पञ्चविंशत्युत्तर द्विसहस्रतमे वर्षे भारतेन श्रमविधैः, व्यापारसन्धौ, ऊर्जायाम्, अन्येषु क्षेत्रेषु च देशस्य विकासगाथा, विश्वसनीयता, स्थिरता, दीर्घकालिकविश्वासश्च दृष्टिङ्गताः। प्रधानमन्त्री अवदत् यत् एते पदाक्षेपाः सप्तचत्वारिंशदुत्तर द्विसहस्रतमवर्षं यावत् विकसितभारतनिर्माणे सहायकाः भविष्यन्ति। प्रधानमन्त्री नरेन्द्रमोदी ह्यः नीति आयोगे आगामिवर्षस्य आयव्यय संकल्पनापत्रमालक्ष्य देशस्य अर्थक्षेत्रस्य विशेषज्ञैः सह उपवेशनम् अकरोत्। इदमुपवेशनम् आर्थिकक्षेत्र विशेषज्ञानां विचारानुभावानाम् आधारेण वर्तमानार्थिकस्थितिम् अवलोक्य भाविसम्भावनायै अवर्तत। अस्मिन् उपवेशने विकासं समेधितुं दोषनिवृत्तये च विचारविमर्शो विहितः। नीति आयोगे विहिताः परिचर्चा प्रशासनाय भावियोजना निर्माणे सहायं प्रदास्यन्ति। दिल्ली सर्वकारेण दिल्ली जन विश्वास प्रावधानानां संशोधनं विधेयकं 26/26 इति स्वीकृतम्। दिल्ल्याः मुख्यमंत्री रेखा गुप्ता अवदत् यत् दिल्ली मन्त्रिमण्डलेन अनुमोदितं विधेयकं अनुपालन प्रक्रियां सरलीकर्तुं, लघु उल्लंघनान् अपराधश्रेण्याः मुक्तं कर्तुं, न्यायालयेषु प्रकरणानां संख्या न्यूनीकर्तुं, प्रशासनिक कार्यक्षमतां वर्धयितुं च उद्दिष्टमस्ति। सावोचत् यत् अग्रिमे मासे पञ्चमदिनांकादारभ्यमाणे दिल्ली विधानसभायाः आगामि शीतकालसत्रावधौ एतद् विधेयकं स्वीकृतं भविष्यति। केन्द्रीय नागरिक उड्डयन मन्त्री किंजरापु राममोहन नायडू ह्यः बेंगलुरुनगरे ध्रुव एनजी उदग्र विमानस्य प्रथमं उद्घाटन उड्डयनं हरितध्वजं प्रदर्शितवान्। एडवांस्ड लाइट हेलीकॉप्टर नेक्स्ट जनरेशन ध्रुव उदग्र विमानस्य स्वदेशी उदग्र विमानस्य नागरिक संस्करणमस्ति, यत् 25+2000 वर्षे एरो इंडिया प्रदर्शने HAL इत्यनेन प्रदर्शितम् आसीत्। भारतीय सेनया 25+2000 वर्षे महत्वपूर्ण प्रगत्याः प्रचालनात्मक प्रतिरोधस्य च प्रमुख लक्ष्याणि अधोरेखितम्। पहलगाम आतंक्याक्रमणस्य अनन्तरं अस्मिन् वर्षे मई मासे ऑपरेशन सिन्दूर इत्याभियानस्य आरम्भ अभवत्, यस्मिन् 9 आतंकि शिविराणि विनष्टीकृतानि, 7 च सीमापारे निष्प्रभावीकृतानि। एतानि आक्रमणानि सुनिर्दिष्टानि, क्रमबद्धानि, कालबद्धानि च आसन। विदेश मंत्री डॉक्टर एस जयशंकरः अद्य ढाका नगरे बांग्लादेशस्य पूर्व प्रधानमंत्री तथा BNP इति दलस्य अध्यक्षायाः खालिदा जिया इत्यस्याः अन्त्येष्टिक्रियायां सम्मिलितः भविष्यति। डॉक्टर जयशंकरः अन्त्येष्टिक्रियायां भारत सर्वकारस्य जनानां च प्रतिनिधित्वं करिष्यति। बांग्लादेशस्य प्रथमा महिला प्रधानमंत्री खालिदा जिया ह्यः ढाका नगरे पंचतत्वे निलीना। प्रधानमन्त्री नरेन्द्र मोदी तस्याः निधने शोकं प्रकटितवान्। खालिदा जिया 80 वर्षीया आसीत्। एकस्मिन् सामाजिक सञ्चारपटले BNP इति दलेन लिखितं यत् प्रशासनेतर चिकित्सालये सा उपचर्यमाणा आसीत्। महिलानां क्रिकेट क्रीडायां भारत श्रीलंका दलयोः 20-20 स्पर्धा मालिकायाः पञ्चमान्तिम स्पर्धायां केरलस्य तिरुवनन्तपुरम स्थिते ग्रीनफील्ड क्रीडांगणे भारतेन श्रीलंका दलं 15 धावनांकैः पराजितम् इति वार्ताः।